तृतीय स्कंध अथ चतुर्थोध्याय उद्धव उवाच अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् तया विभ्रंसित अज्ञाना दुरुक्तैर्मर्म पस्पृशुः तेषाम् मैरेय दोषेण विषमीकृत चेतसाम् निम्नोचतीरव उवासीद् वेणूनामिव मर्दनम् भगवान् स्वात्माया गतिम् तामवलोक्य सः सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् अहम् चक्तो भगवता प्रपन्नार्तिहरेण बदरीम् त्वम् प्रजाहीति स्वकुलम् सञ्जिहीर्षुणा अथापि तदभिप्रेतम् जानन्हमरिन्दम पृष्ठत्वन्वगमम् भर्तुः पादविश्लेषणाक्षमः अद्राक्षम् एकम् आसीनम् विचिन्वन् दयितम् पतिम् श्रीनिकेतम् सरस्वत्याम् कृतकेतमकेतनम् श्यामावदातम् विरजम् प्रशान्तारुणलोचनम् दुर्भिश्चतुर्भिर्विदितम् पीतकौशाम्बरेण च वाम उरौ अधिश्रित्य दक्षिणाङ्घ्रिसरोरुहम् अपाश्रितार्भकाश्वत् थम् अकृशम् त्यक्तपिप्पलम् तस्मिन् महाभागवतो द्वैपायन् सुहृत्सखा लोकाननुचरन् सिद्ध आशसाद जदृच्छया तस्यानुरक्तस्य मुनेर्मुकुन्दः प्रमोदभावानतकन्धरस्य आशृण्वतो मामनुरागहास समीक्षया विश्रमयन्नुवाच श्रीभगवान् उवाच वेदाहमन्तर्मनशिप्सितम् ते ददामि यत्तद्दुर्वापमन्यैः सत्रे पुरा विश्वसृजाम् वशूनाम् मत्सिद्धिकामेन वशो त्वयष्टः स एष साधो चर्मो भवानामासाधितस्ते मदनुग्रहो यत् जन्माम् निर्लोकान् वह उत्सृजन्तम् दृष्ट्या ददृश्वान् विशदानुवृत्त्या पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्डाय ममादिसर्गे ज्ञानम् परम् मन्महिमावभासम् यत्सूरयो भागवतम् वदन्ति इत्यादृतोक्तः परमस्य पुंसः प्रतीक्षणानुग्रहभाजनोऽहम् स्नेहोत्तरो मा स्खलिताक्षरस्तम् मुञ्चन् शुचः प्राञ्जलिराबभाषे कोऽन्वीषते पादसरोजभाजाम् सुदुर्लभोऽर्थेषु चतुर्स्वपीया तथापि नाहम् प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणोत्सुकः कर्माण्यनीहस्य भवो भवस्यते दुर्गाश्रयोत्थारिभयात्पलायनम् कालात्मनो यत्प्रमदाजुताशयः स्वात्मन् व्रतेः खिद्यतिधिर्विदामिह मन्त्रेषु माम् वा उपहूय यत्त्वम् अकुण्ठिताखण्डसदात्मबोधः पृच्छे प्रभो मुग्धैवा प्रमत्तस्तन्नो मनो मोहयतीव देव ज्ञानम् परम् स्वात्मनः प्रकाशम् प्रोवाच कस्मै भगवान् समग्रम् अपीक्षमम् नो ग्रहणाय भर्तर् वदाञ्जसा यद्वृजिनम् तरेमम् इत्यावेदितहार्दाय मह्यम् स भगवान् परः आदिदेशारविन्दाक्ष आत्मनः परमाम् स्थितिम् स एवमाराधितपादतीर्थादधीतत्त्वात्मविबोधमार्गः प्रणम्य पादौ परिवृत्य देवम् इहागतोऽहम् विरहातुरात्मा सोऽहम् तद्दर्शनाह्लादवियोगार्तिजुतः प्रभो गमिष्ये दयितम् तस्य बदर्याश्रममण्डलम् यत्र नारायणो देवो नरश्च भगवान् ऋषिः मृदु तीव्रम् तपो दीर्घम् ते पाथे लोकभावनम् श्रीशुक उवाच इतुद्धवादुपाकर्ण्य सुहृदां दुस्सहं बधम् ज्ञानेन समयच्छत्ता शोकमुत्पतितं बुधः शतं महाभागवतं व्रजन्तं कौरवर्षभः विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे विद्र उवाच ज्ञानं परं स्वात्मरहः प्रकाशं जदाह योगेश्वर ईश्वरस्ते वक्तुं भवानर्हति जद्धि विष्णोर्भृत्यः स्वभृत्यार्थकृतश्चरन्ति उद्धव उवाच ननु ते तत्त्वसंराध्य ऋषिः कौसारवन्ति मे साक्षात् भगवता दिष्टो मर्त्यलोकं जिहासता श्रीशुक उवाच इति सह विदुरेण विश्वमूर्तेर्गुणकथया सुधया प्लावितो रुतापः क्षणमिव पुलिने गम स्वसुस्ताम् समुषित औपगवीर्निशाम् ततो गात् राजोवाच निधनमुपगतेषु वृष्णिभोजेषु अधिरथ जूथपजूथपेषु मुख्यः स तु कथमवशिष्ट उद्धवो जदहरिरपि तत्यज आकृतिम् त्रयधीशः शेषक उवाच ब्रह्मशापोपदेशेन कालेन मोघवाञ्छितः संहृत्य सकुलम् नूनम् त्यक्षन् देहमचिन्तयत् अस्माल्लोकादुप्रते मयि ज्ञानम् मदाश्रयम् अर्हतुद्धव एवाद्धा सम्प्रत्यात्मवताम् वरः नोद्धवोऽपि मन्युन यद्गुणैर्नार्दितः प्रभुः अतो मद्वैनम् लोकम् ग्राह्य निहतिष्ठतु एवम् त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना बदर्याश्रममासाद्य हरिमीजे समाधिना विद्रोप्युद्धवा श्रुत्वा कृष्णस्य परमात्मनः क्रीडयोपातदेहस्य कर्माणि श्लाघितानि च देहन्यासम् च तस्यैवम् धीराणाम् धैर्यवर्धनम् अन्येषाम् दुष्कर्तरम् पशूनाम् विक्लवात्मनाम् आत्मानम् च कुरु श्रेष्ठ कृष्णेन मनसक्षितम् ध्यायन् गते भागवते रुरोद प्रेम विह्वलः कालिन्द्यः कपिभिः सिद्ध अहोभिर्भर्तर्षभः प्रापद्यत स्वसरितम् यत्र मित्रासुतो मुनिः इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् तृतीयस्कन्धे विदुरुद्धौ संवादे चतुर्थोऽध्यायः।